कर्तुराज्ञया प्राप्यते फलम्, कर्म किं परं कर्म तज्जडं, कृतिमहो ददौ पतनकारिणं, फलं शाश्वतं गतिनिरोधकम्, ईश्वरार्पितं निच्छया कृतं, चित्तशोधकं मुक्तिसाधकं, कायवाण्मनः कार्यमुत्तमं, पूजनं जपा चिन्तनं क्रमात्, जगतेषधियुक्तसेवनम्, अष्टमूर्तिभेद देवपूजनम्, उत्तमस्तवादुच्चमन्दतः चित्तजं जप ध्यानमुत्तमम्, आज्यधारया श्रोत्रसासमम्, सरलचिन्तनं विरलतः परम्, भेदभावनात् सोऽहमित्यसौ भावनाभिधा पावनीमता, भावशून्यसद्भावसुस्थितिः भावनाबलात् शक्तिरुत्तमा, हृत्सले मनः स्वस्थता क्रिया भक्तियोग बोधाश्च निश्चितम्।